ॐ युष्टभाचो भूया सञ्जुष्टभाचस्पतये देवि वाग् यद्वाचो मधुमत्तस्मिन्माधा स्वाहा सरस्वत्यै ऋचास्तोमघुं समर्थय गायत्रेण रथन्तरम् बृहद्गाय प्रवर्तने यस्ते जप्सस्कन्दधियस्ते अगुंशुर्बाहुच्युतोधिषणयोरुपस्थात् अध्वर्योर्वापरियस्ते पवित्रार्थ्वाहाकृतमिन्द्राय जञ्जुहोमि योद्धप्सो अगुंशुः पतितः पृथिव्याम् परिवापात् पुरोडाशात् करम्भात् धाना सोमान्मन्थिन इन्द्र शुक्रात्स्वाहाकृतमिन्द्राय तञ्जुहोमि यस्ते द्रप्सो मधुमागुम् इन्द्रियावान् स्वाहाकृतः पुनरप्येति देवान् दिवः पृथिव्याः पर्यन्तरिक्षात्स्वाहाकृतमिन्द्राय तञ्जुहोमि अध्वर्युर्वार त्विजाम् प्रथमो युज्यते ते स्तोमो यो तव्य इत्याहुर्वागृहेगा अग्र एत्पृजुगा देवेभ्यो यशो मयि दधते प्राणान् पशुषु प्रजां मयि जयजमाने चेत् त्याहवाचमेवत यज्ञमुखे युन दिवास्तु वा एतत् यज्ञस्य क्रियते यत्रहान् गृहे त्वा बहिष्टवमानगुं सर्पन्ति परान् जोहियन्ति पराचेभिस्तुवते वैष्णव्यर्थ चा पुनरेत्योपतिष्ठते यज्ञो वै विष्णुर्यज्ञमेवागर्विष्णो त्वं नो अन्तमशर्मय छसहन्त्या प्रदेधारामधुश्च्युत उत्सन्दो प्रते अक्षितमि त्यागय देवास्य शयान स्योपशिष्यति तदेवास्यैते नाप्याययते।